ओम नमो भगवते वासुदेवाय। अथैकोनत्रिंशोऽध्यायः। देवहूतिरुवाच, लक्षणं महदादीनां प्रकृतेः पुरुषस्य च स्वरूपं लक्ष्यते मीषां येन तत्पारमार्थिकं, यथा साङ्ख्येषु कथितं यन्मूलं तत्प्रचक्षते। भक्तियोगस्य मे मार्गं ब्रूहि विस्तरशः प्रभो। विरागो येन पुरुषो भगवन् सर्वतो भवेत्। आचक्ष्वजीवलोकस्य द्विविधा मम संसृतिः, कालस्येश्वररूपस्य परेषां च परस्य ते। स्वरूपं बत कुर्वन्ति यद्धेतोः कुशलं जनाः, लोकस्य मिथ्याभिमतेर्चक्षुषश्चिरं प्रसुप्तस्य तमस्य नाश्रये। शान्तस्य कर्मस्वनुविद्धया धिया तुमाविरासीः किल योगभास्करः। मैत्रेय उवाच इति मातुर्वच लक्षणं प्रतिनन्द्य महामुनिः। आबभाषे कुरुश्रेष्ठ प्रीतस्तां करुणार्जितः। श्रीभगवानुवाच, भक्तियोगो बहुविधो मार्गैर्भामि निभाव्यते। स्वभावगुणमार्गेण पुंसां भावो विभिद्यते। अपि सन्धाय यो हिंसां दम्भं मात्सर्यमेव वा, संरम्भिभिन्नदृग्भावं मयि कुर्यात् सतामसः। विषयानपि सन्धाय यश ऐश्वर्यमेव वा, अर्चादावर्चयेद् यो मां पृथग्भावस्य राजसः। कर्मनिर्हारमुद्दिश्य परस्मिन् वा तदर्पणम्, यजेद्यष्टव्यमिति वा पृथग्भावस्य सात्विकः। मद्गुणश्रुतिमात्रेण मयि सर्वगुहाशये, मनोगतिरविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ। लक्षणं भक्तियोगस्य निर्गुणस्य युदाहृतम्, अहैतुक्यव्यवहिता या भक्तिः पुरुषोत्तमे। सालोक्यसार्ष्टिसामिप्य सारूप्यैकत्वमप्युत, दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः। स एव भक्तियोगाख्य आत्यन्तिक उदाहृतः, येनातिव्रज्य त्रिगुणं मद्भावायोपपद्यते। निषेवितेन निमित्तेन स्वधर्मेण महीयसा, क्रियायोगेन शस्तेन नातिहिंस्रेण नित्यशः। मद्धिष्ण्यदर्शनस्पर्शपूजाश्च्युत्यभिवन्दनैः, भूतेषु मद्भावनया सत्त्वेनासङ्गमेन च, महतां बहुमानेन दीनानामनुकम्पया, मैत्र्या चैवात्मतुल्येषु यमेन नियमेन च, आध्यात्मिकानुश्रवणान्नाम सङ्कीर्तनाच्च मे, आर्जवेनार्यसङ्गेन निरहङ्क्रियया तथा। मद्धर्मणो गुणैरेतै परिसंशुद्धाशयः, पुरुषस्याञ्च साभ्येति श्रुतमात्रगुणं हि माम्। यथा वातरथोग्राणमाविङ्क्ते गन्धाशयात्, एवं योगरतं चेत आत्मानमविकारियत्। अहं सर्वेषु भूतेषु भूतात्मावस्थितः सदा, तमवज्ञाय मां मर्त्यः कुरुतेर्चा विडम्बनम्। यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरं हित्वार्चां भजते मौढ्याद्भस्मन्येव जुहोति सः। द्विषतः परकाये मां मानिनो भिन्नदर्शिनः, भूतेषु बद्धवैरस्य न मनः शान्तिमृच्छति। अहमुच्चावचैर्द्रव्यैः क्रिययोत्पन्नया नघे, नैव तुष्येऽर्चितोऽर्चायां भूतग्रामावमानिनः। अर्चादावर्चयेत्तावदीश्वरं मां स्वकर्मकृत्। यावन्न वेदस्वहृति सर्वभूतेष्वस्थितम्, आत्मनश्च परस्यापि यः करोत्यन्तरोदरम्, तस्य भिन्नदृशो मृत्युर्विदधे भयमुल्बणम्। अथ मां सर्वभूतेषु भूतात्मानं कृतालयम्, अर्हयेद्दानमानाभ्यां मैत्र्याभिन्नेन चक्षुषा। जीवा श्रेष्ठाय जीवानां ततः प्राणभृतः शुभे, ततः सचित्ताः प्रवरास्ततश्चेन्द्रियवृत्तयः। तत्रापि स्पर्शवेदिभ्यः प्रवरा रसवेदिनः, तेभ्यो गन्धविदः श्रेष्ठास्ततः शब्दविदो वराः। रूपभेदविदस्तत्र ततश्चोभयतोदतः, तेषां बहुपदाः श्रेष्ठाश्चतुष्पादस्ततो द्विपात्। ततो वर्णाश्च चत्वारस्तेषां ब्राह्मण उत्तमः, ब्राह्मणेष्वपि वेदज्ञो यर्थज्ञोऽभ्यधिकस्ततः। अर्थज्ञात् संशयच्छेत्ता ततः श्रेयान् स्वकर्मकृत्। मुक्तसङ्गस्ततो भूयानदोग्धा धर्ममात्मनः, तस्मान्मय्यर्पिता शेषक्रियार्थात्मा निरन्तरः। मय्यर्पितात्मनः पुंसो मयि सन्न्यस्तकर्मणः, न पश्यामि परं भूतमकर्तुः समदर्शनात्। मनसैतानि भूतानि प्रणमेद्बहुमानयन्, ईश्वरो जीवकलया प्रविष्टो भगवानिति। भक्तियोगस्य योगश्च मया मानव्युदीरितः, ययोरेकतरेणैव पुरुषः पुरुषं व्रजेत्। एतद्भगवतो रूपं ब्रह्मणः परमात्मनः, परं प्रधानं पुरुषं दैवं कर्म विचेष्टितं। रूपभेदास्पदं दिव्यं काल इत्यभिधीयते, भूतानां महदादीनां यतो भिन्नदृशां भयं योऽन्तः प्रविश्य भूतानि भूतैरत्यखिलाश्रयः स विष्णुवाख्योदियज्ञोऽसौ कालः कलयतां प्रभुः न चास्य कश्चिद्दयितो न द्वेष्यो न च बान्धवः आविशत्य प्रमत्तोऽसौ प्रमत्तं जनमन्तकृत् यद्भयाद्वातिवातोऽयं सूर्यस्तपति यद्भयात् यद्भयाद् वर्षते देवो भगणो भाति यद्भयात् यद्वनस्पतयो भीता लताश्चौषधिभिः सह स्वे स्वे काले विगृह्णन्ति पुष्पाणि च फलानि च स्रवन्ति सरितो भीता नोत्सर्पत्युदधिर्यतः अग्निरिन्धे स गिरिभिर्भूर्णमज्जति यद्भयात् नभो ददाति श्वसतां पदं यन्नियमाददः लोकं स्वदेहं तनुते महान् सप्तभिरावृतम् गुणाभिमानिनो देवा सर्गादिश्वस्य यद्भयात् वर्तन्तेन युगं येषां वश एतच्चराचरम् सोऽनन्तोऽन्तकरः कालो नादिरादिकृतव्ययः जनं जनेन जनयन् मारयन् मृत्युनान्तकम् ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेयोपाख्याने एकोनत्रिंशोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां यथा त्वच्चरणां भोजे रतिः स्यादनपायिनी।